ओम नमो भगवते वासुदेवाय। अथ चतुर्विंशोऽध्यायः। श्री भगवानुवाच। अथ ते संप्रवक्ष्यामि सांख्यं पूर्वैर्विनिश्चितं यद्विज्ञाय पुमान् सद्यो जह्याद्वैकल्पिकं भ्रमम् आसीत् ज्ञानमथोऽर्थ एकमेवाविकल्पितं यदा विवेकनिपुणा आदौ कृतयुगे युगे तन्मायाफलरूपेण केवलं निर्विकल्पितम् वाङ्मनोगोचरं सत्यं द्विधा समभवद्बृहत् तयोरेकतरोऽयर्थः प्रकृतिः सोभयात्मिका ज्ञानं त्वन्यतमोभावः पुरुषः सोऽभिधीयते तमोरजसत्त्वमिति प्रकृतेरभवन् गुणाः मया प्रक्षोभ्यमाणायाः पुरुषानुमतेन च तेभ्यः समभवत्सूत्रं महान् सूत्रेण संयुतः ततो विकुर्वतो जातोऽहङ्कारो यो विमोहनः वैकारिकस्तैजसश्च तामसश्चेत्यहं त्रिवृत् तन्मात्रेन्द्रियमनसां कारणं चिदचिन्मयः अर्थस्तन्मात्रिकाज्जज्ञे तामसादिन्द्रियाणि च तैजसाद्देवता आसन्नेकादश च वैकृतात् मया सञ्चोदिता भावाः सर्वे संहत्यकारिणः अण्डमुत्पादयामासुर्ममायतनमुत्तमम् तस्मिन्नहं समभवमण्डे सलिलसंस्थितौ मम नाभ्यामभूत्पद्मं विश्वाख्यं तत्र चात्मभूः सोऽसृजत्तपसा युक्तो रजसा मदनुग्रहात् लोकान् सपालान् विश्वात्मा भूर्भुवः स्वरिति त्रिधा देवानामोक आसीत् स्वर्भूतानां च भुवः पदं मर्त्यादीनां च भूर्लोकः सिद्धानां त्रितयात् परम् अधोऽसुराणां नागानां भूमेरोको सृजत् प्रभुः त्रिलोक्यां गतयः सर्वाः कर्मणां त्रिगुणात्मनां योगस्य तपसश्चैव न्यासस्य गतयोमलाः महर्जनस्तपः सत्यं भक्तियोगस्य मद्गतिः मया कालात्मना धात्रा कर्मयुक्तमिदं जगत् गुणप्रवाह एतस्मिन्नुन्मज्जति निमज्जति अणुर्बृहत्कृशः स्थूलो यो भावः प्रसिद्ध्यति सर्वोऽप्युभयसंयुक्तः प्रकृत्या पुरुषेण च यस्तु यस्याधिरन्तश्च स वै मध्यं च तस्य सन् विकारो व्यवहारार्थो यथा तैजसपार्थिवाः यदुपादाय पूर्वस्तु भावो विकुरुते परम् आदिरन्तो यदा यस्य तत्सत्यमभिधीयते प्रकृतिर्यस्योपादानमाधारः पुरुषः परः सतोऽभिव्यञ्जकः कालो ब्रह्म तत्रितयं त्वहं सर्गः प्रवर्तते तावत् पौर्वापर्येण नित्यशः महान् गुणविसर्गार्थः स्थित्यन्तो यावदीक्षणम् विराण्मया साध्यमानो लोककल्पविकल्पकः पञ्चत्वाय विशेषाय कल्पते भुवनैः सह अन्ये प्रलीयते मर्त्यमन्नं धाना सुलीयते धाना भूमौ प्रलीयन्ते भूमिर्गन्धे प्रलीयते अप्सु प्रलीयते गन्ध आपश्च स्वगुणे रसे लीयते ज्योतिषिरसो ज्योतिरूपे प्रलीयते रूपं वायौ सतस्पर्शे लीयते सोऽपि चाम्बरे अम्बरं शब्दतन्मात्र इन्द्रियाणि स्वयोनिषु योनिर्वैकारिके सौम्य लीयते मनसीश्वरे शब्दो भूतादिमप्येति भूतादिर्महति प्रभुः सलीयते महान् स्वेषु गुणेषु गुणवत्तमः ते व्यक्ते सम्प्रलीयन्ते तत्काले लीयते व्यये कालो मायामये जीवे जीव आत्मनि मय्यजे आत्मा केवल आत्मस्थो विकल्पापायलक्षणः एवमन्वीक्षमाणस्य कथं वैकल्पिको भ्रमः मनसो हृदि तिष्ठेत व्योम्निवार्कोदये तमः एष साङ्ख्यविधिः प्रोक्तः संशयग्रन्थिभेदनः प्रतिलोमानुलोमाभ्यां परावरदृशा मया ॐ स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कन्धे चतुर्विंशोऽध्यायः श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमां यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।